सर्वेभ्यः अद्य प्रौढमनोरमायाः अच्छन्दिप्रकरणे पञ्चमः पाठः फेब्रुवरी मासस्य द्वाविंशः दिनाङ्कः येनाक्षरसमां नायमधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ध्यायन् ध्यायं परं ब्रह्मस्मारं स्मारं गुरोर्गिरः सिद्धान्तकौमुदी व्याख्यां कुर्मः प्रौढमनोरमाम्। Since we have already lost some time today, we will skip the Moola reading. We will quickly do a recap of what we did last class, which was the Sutra Na Padanta Dvirvachana Vare Yalopaswara Savarna Anuswara Dirgha Jashchar Vidhishu. Anena Sutrena Sthanivadbhavasya Nishedhaha Kriyate. Atah Parasmin Purva Vidhau Tanena परनिमित्तः अजादेशः स्थानिवत् स्यात् स्थानिभूतादतः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये इति विहितः यः स्थानिवद्भावः सः पदान्तादिषु न भवति अर्थात् स्थानिवद्भावः न स्यात् इति निषेधः। तत्र पदान्त इत्यस्य पदस्य चरमावयवे कर्तव्ये स्थानिवद्भावः नास्ति इत्यर्थः कृतः। उदाहरणार्थं कानि सन्ति इत्यस्ति, कानि इत्यत्र इकारः, सन्ति इति असुधातोः प्रथमपुरुष बहुवचने रूपं, तत्र अकारस्य श्नसोरल्लोपः इत्यनेन लोपः, तस्य लोपस्य स्थानिवद्भावे सति कानि अ इकारस्य अकारे परे यणादेशः स्यात्, अतः अत्र स्थानिवद्भावः निषिध्यते। पदान्ते कर्तव्ये, पदस्य चरमावयवे कर्तव्ये, पदस्य चरमावयवः नाम अत्र यकारः, यः क्रियते नाम यणादेशः, सः पदस्य चरमावयवः भविष्यति। इफ् वि डु यन् द कार्य विल् बिकम् अ पार्ट् द फैनल् पार्ट् आफ् द पद आफ् कानि। सो इन् सच् अ केस् वि डु नाट् हाव् स्थानिवद्भाव एण्ड् स्थानिवद्भाव इस् प्रिवेण्टेड् बै द सूत्रम्। पदान्तस्य स्थाने विधौ इति किमर्थं नोच्यते इति प्रश्नः। In the simple meaning you get is when we are doing a karya for the final letter of the pada. So kani ityatra ikarasya sthane adeshe kartavye sthanivadbhavah nasti. So even with that interpretation, this example will hold good. So why are we interpreting it as padasya saramamayave kartavye? Tatra vrikshav iti udaharanam pradarshitam. Vriksham veti athava वाति इति उदाहरणे वीधातोः अथवा वाधातोः णिच् प्रत्ययः ततः क्विप्। सो वी फैनली हाव् वृक्षव् व् क्विप् इत्यत्र वकारस्य क्षम्यतां क्विप् न विच् प्रत्ययः वकारः अस्ति, वृक्षव् व् इति स्थिते लोपो व्योर्वलि इत्यनेन वकारस्य लोपः प्राप्नोति वृक्षव् इत्यत्र वकारस्य। So here we prevent it by bringing in the nich by sthanivadbhava. Luptaha yaha nich prakshav e ityasti tataha vich pratyayaha madhye luptasya nichaha sthanivadbhave sati tena vyavadhanat valopo na bhavati kintu ayam padantasya sthane vidhihi. Ate vrikshav ityatra vakaraha padante asti. पदान्तस्य विधौ स्थानिवद्भावः नास्ति इति यदि उच्यते तर्हि अत्र लोपः स्यात्, किन्तु लोपः न इष्यते। अतः पदस्य चरमावयवे कर्तव्ये, यः क्रियते आदेशः, सः यदि पदस्य चरमावयवः भविष्यति तर्हि स्थानिवद्भावः नास्ति। अत्र तु लोपः कर्तुमिष्यते, लोपः पदस्य अवयवः भवितुं नार्हति। सो द लोप विल् नाट् बी एन् अवयव आफ् द पद, अतः अत्र स्थानिवद्भावनिषेधो नास्ति, स्थानिवद्भावसत्त्वात् स्वलोपो न भवति इति स्थितिः। पदस्य चरमावयवे द्विर्वचनादिषु च कर्तव्येषु, द्विर्वचने कर्तव्ये स्थानिवत्त्वं नास्ति। उदाहरणं शुद्ध्युपास्यः, सुधी उपास्यः, यणादेशे कृते शुद्ध्युपास्यः, धकारस्य अनसि च इत्यनेन द्वित्वम्। तत्र यदि यकारस्य स्थानिवद्भावेन ईकारः तर्हि अचि अच्परकत्वात् अनसि च इति द्वित्वं न स्यात्, अतः द्वित्वे कर्तव्ये स्थानिवद्भावः नास्ति, अनसि च इति द्वित्वं भवति, शुद्ध्युपास्यः इति धकारद्वयं श्रूयते। वरे परे अजादेशस्य स्थानिवत्त निषेधः। वरे इति सप्तम्यन्तः, सप्तम्याः अलुक्, अतः वरे परे, वरच् प्रत्यये परे यः अजादेशः, यायावरः इत्यस्ति। या धातोः यङन्तस्य, यङन्तात् वरच् प्रत्ययः, यायाय इति यङन्तं, तस्मात् वरच्, तत्र अकारस्य अतोलोपः इत्यनेन लोपः, पुनः यकारस्य लोपोव्युर्वलि इत्यनेन लोपः, याया वरः इत्यस्ति। अत्र यदि लुप्तः अकारः स्थानिवद्भावेन आनीयते तर्हि णित् यकारः यङ् अकारः यङ् प्रत्ययस्य अवयवः, यङ् प्रत्ययश्च णित्, णित्तन्निमित्तीकृत्य आतोलोप इति च इत्यनेन याया इति अन्तिमस्य आकारस्य लोपस्यात्। If we use Thanivadbhava, the Akara would have been deleted because it is followed by Akara, which is a part of Yang. Lopaha na ishyate, yaha vare pare yaha ajadesha. So the Akara, Akara lopa is the adesha when followed by Varach. So vare pare yaha ajadesha, tasya Thanivadbhava nasti. Since it cannot be brought by Thanivadbhava, we cannot delete the Akara here. यलोपे कर्तव्ये स्थानिवत्त्व निषेधः। When we need to do a यलोप, यातिः इत्यस्ति, स एव यङन्तः या धातुः, यायाय इत्यस्मात् क्तिच् प्रत्ययः, ति यायाय ति, अकारस्य अतोलोपः इत्यनेन लोपः, यकारस्य लोपोऽप्युर्वलीति लोपः। इदानीं यकारलोपे कर्तव्ये यदि अकारः स्थानिवद्भावेन आनीयते, लुप्तः अकारः यदि स्थानिवद्भावेन आनीयते तर्हि यलोपः न स्यात् अकारेण व्यवधानात्। पुनः आतोलोप इति च इत्यनेन अकारस्य लोपे पुनरपि अकारलोपः क्रियते, तत्रापि स्थानिवत्त्वे सति यलोपो न स्यात्, अतः यलोपे कर्तव्ये स्थानिवद्भावः नास्ति। स्वरे कर्तव्ये स्थानिवत्त्व निषेधः। चिकीर्षकः इत्यस्ति, चिकीर्ष इति सन्नन्तस्य धातोः नुल् प्रत्ययः, तस्य अक आदेशः, चिकीर्ष अक, तत्र सनः अकारस्य चिकीर्ष लोपः, अतोलोपः इत्यनेन लोपे चिकीर्ष अक, चिकीर्षक इत्यस्ति। तत्र ईकारस्य लिति इति उदात्तस्वरः कर्तव्यः, लित् प्रत्यये परे स्वरस्य उदात्तत्वं भवति। सो द स्वर विल् आल्वेस् बी आन् द लास्ट् वोवेल् आर् द वोवेल् विच् इस् नियरेस्ट् टु द निमित्त, निमित्तः लित् प्रत्ययः, तस्मात् अव्यवहितस्य स्वरस्य, द फर्स्ट् द नियरेस्ट् स्वर टु द निमित्त विल् आल्वेस् गेट् वट् एवर् स्वर इस् गिवन्। सो चिकीर्ष अक, चिकीर्ष इत्यत्र अन्तिमः ईकारः, तस्य उदात्तत्वं करणीयम्। यदि लुप्तः अकारः स्थानिवद्भावेन आनीयते तर्हि ईकारस्य उदात्तत्वं न स्यात् बिकास् इट् इस् नो लाङ्गर् द लास्ट् आर् द नियरेस्ट् वोवेल्, अतः स्थानिवद्भावनिषेधः। सवर्णे अनुस्वारे च कर्तव्ये स्थानिवत्त्व निषेधः। सवर्ण अनुस्वार, शिण्ढि इत्यस्ति, शिशुधातोः लोट्लकारे मध्यमपुरुषैकवचनम्, तत्र श्नम् इति विकरणः क्रियते, शीनष् धि प्रत्यये, तत्र शीनष् इत्यत्र अकारस्य श्नसोरल्लोपः इत्यनेन लोपः, शिन् ष् धि, इदानीम् अकारस्य नष्टापदान्तस्य झलि इत्यनेन अनुस्वारः करणीयः। यदि अकारस्य स्थानिवद्भावः तर्हि झल् परकत्वं नास्ति इति कृत्वा अनुस्वारः न स्यात्, अनुस्वारे कर्तव्ये स्थानिवत्त्वं नास्ति। पुनः तस्य नकारस्य परसवर्णत्वं भवति, शिण्ढि इति, शि शिम् डल् धि, षकारस्य जष्ट्वे शिम् डल् धि इति स्थिते नकारः परसवर्णः क्रियते, तत्रापि यदि स्थानिवद्भावेन अकारः आनीयते तर्हि परसवर्णः न स्यात्, उभयोः सवर्णानुस्वारयोः स्थानिवद्भावः नास्ति। दीर्घे कर्तव्ये स्थानिवद्भावनिषेधः। प्रतिदीव्ना, प्रतिदिवन् आ तृतीयैकवचनम्, तत्र अकारस्य अल्लोपोनः इत्यनेन लोपः, हलि च इत्यनेन दीर्घः, दिव् रेफवकारान्तस्य धातोः हलिपरे उपधादीर्घः दीव् इति भवति, अकारस्य स्थानिवद्भावे हल्परकत्वं न स्यात्, Dirghashta Nasyat Pratidivna Jashtve Kartavya Sthanivadbhava Nishvedha Sabdabhihi Tasti Adhidhatohu Ghasl Adeshaha Ghasl Dhi Ghasibhasoho Halidjanena Akarasya Lopaha Ghasl Dhi Jalo Jali Itjanena Fakarasya Api Lopaha Ghdhi Idanim Ghityasya Jalam Jashtheshi Itjanena Jashtvam Karaniyam Yadi Luptaha Akaraha Sthanivadbhavena Ashriyate Tarhi Jal Prat Jash Parakatvam Nasti Itjataha Jashtvam Nasyat Sthanivadbhavaha Nishidhyate Sartve Kartavyeti Sthanivadbhavaha Nasti Jakshatahu Atrapi Punaha Sayeva Ghasladeshaha Jagh Satuhu Ityasti Ghakarasya Chartvena Kakarah Kriyate Jakshatahu Tatrapi Yadi Sthanivadbhavaha Ghas Ityatra Akaraha Luptaha Tasya Sthanivadbhavaha Yadi Syat Tarhi Chartvam Nasyat So Esha Sarveshu Vidhishu Sthanivadbhavaha Nasti Iti Nishedhaha Adhivam Sutramasti Sanyogantasya Lopaha Sudhu yu upasyaha ityatra dvitvam kritam idanim dhu yu sudhya ityatra ante please excuse me for one moment Sanyogantasya lopaha Sudhubasyaha Sudhu yu upasyaha Atisthite Sudhya iti padam Sudhi iti padam Tasya sthane yakara deshi iti padam Tatra dhakara yakara yoho संयोगः अस्ति संयोगान्तस्य संयोगान्तं यत् पदं तदन्तस्य लोपः स्यात् इति सूत्रार्थः संयोगान्तं यत् पदं शुद्धि इति पदं तदन्तस्य नाम यकारस्य लोपः स्यात् इति प्राप्ते तदन्तस्य इति अलोन्त्यपरिभाषया इति भावः सूत्रे किमस्ति संयोगान्तस्य लोपः इत्यस्ति संयोगान्तं यत् पदं तस्य लोपः स्यात् इति वक्तव्यं तदन्तस्य लोपः इति कथम् इति प्रश्ने अलोन्त्यपरिभाषया अलोन्त्यस्य षष्ठी निर्दिष्टस्य अन्त्यस्य अल आदेशः स्यात् संयोगान्तस्य इत्यस्ति अर्थात् संयोगान्तं यत् पदं तस्य इत्युक्ते तदन्तस्य लोपः भवति अन्तिमवर्णस्य इत्यर्थः अतः अलोन्त्यपरिभाषया इति भावः यद्यपि विशेषणेन तदन्तविधिलाभात् संयोगस्य इत्येव सूत्रयितुम् उचितम् अत्र कश्चन प्रश्नः संयोगान्तस्य लोपः इति किमर्थमुच्यते संयोगस्य लोपः इत्येव वक्तुं शक्यते इति अर्थात् संयोगस्य लोपः इत्युक्ते अन्तग्रहणं लभ्यते संयोगः इत्यस्ति पदम् इत्यस्ति तत्र पदस्य इति अधिकारः अस्ति इन् 8-23 वि हाव् द निवृत्ति आफ् पदस्य सो संयोगस्य इत्यस्ति पदस्य इत्यस्ति उभयोः विशेषणविशेषभावे सति विशेषणेन तदन्तविधिलाभात् येन विधिस्तदन्तस्य इत्युच्यते विशेषणं तदन्तस्य संज्ञा स्यात् स्वस्य रूपस्य अतः संयोगं संयोगः पदम् इत्युच्यते संयोगान्तस्य पदस्य इति स्वयं लभ्यते यद्यपि विशेषणेन तदन्तविधिलाभात् संयोगस्य इत्येव सूत्रयितुम् उचितम् तथापि प्रत्येकं संयोगसंज्ञा इति पक्षे दृशत्करोति इत्यादौ लोपं वारयितुं संयोगौ अन्तौ यस्य इति द्विवचनान्तेन समासलाभार्थम् अन्तग्रहणम् संयोग वाट् इस् संयोग क्वश्चन् हलोनन्तरा संयोगः इति सूत्रम् अज्भिः अव्यवहिताः हलः संयोगसंज्ञाः स्युः सो वेन् देर् इस् नो हल् देर् इस् नो अच् इण्टर्वीनिङ्ग् इन् बिट्वीन् टु consonant will be called sanyoga. Atra ubhayoho haloho militva sanyoga sanyama, ubhayoho pratyekam sanyoga sanyama iti prashna. Will they both together as a group, the two consonants, will they get the sanyoga sanya or will each component of that sanyoga be individually called sanyoga? Ajavyavahitayoho haloho samudayasya eka sanyoga sanya iti ekah pakshaha. प्रत्येकं हलः संयोगसंज्ञा इति अपरः पक्षः सो वी हेव् टु पक्षास् बोत् आफ् विच् हेव् बीन् एक्सेप्टेड् इन् द भाष्य भाष्यकार डस् नाट् डिनै एनी बोत् पक्षास् हेव् बीन् एक्सेप्टेड् सो प्रत्येकं संयोगसंज्ञा इति पक्षे इफ् वि एक्सेप्ट् दट् ईच् कम्पोनेण्ट् आफ् अ संयोग विल् बि काल्ड् संयोग देन् what happens drishat karoti ityado drishat karoti ityasti drishat iti bhinnam karam padam karoti iti bhinnam padam drishat karoti ityatra sanyoga asti takara kakarayo sanyoga now if each part that is takarasya api sanyoga samya asti kakarasya api sanyoga samya asti tarhi drishat iti sanyogantam padam even though both components do not belong to the pada okay karoti belongs to a different pada but pratyekam samyoga samya iti pakshe takarasya sanyoga samyayah satvat sanyogantam yat padam tadantasya lopasya adityanena takarasya lopahasyat right so lopam varayitu sanyogau antau yasya iti dvivachanantena samasa labhartham so sanyogantasya iti yadi samastam padam asti then the vigraha can be संयोगः अन्तः यस्य सः आर् संयोगौ अन्तौ यस्य स्वस्मिन् पक्षे किं क्रियते संयोगौ अन्तौ यस्य इति द्विवचनान्तेन समासलाभार्थम् अत्र तु द्विषत् करोति इत्यत्र एक एव संयोगः पदान्ते अस्ति अपरः संयोगः अपरस्मिन् पदे सुध्युपास्यः इत्यत्र तु धकारयकारौ उभावपि अन्ते स्तः अतः सुध्युपास्यः इत्यत्र प्राप्नोति दृशत् करोति इत्यत्र न प्राप्नोति वारयितुं शक्यते तथापि प्रत्येकं संयोगसंज्ञा इति पक्षे दृशत् करोति इत्यादौ लोपं वारयितुं
संयोगौ अन्तौ यस्य इति द्विवचनान्तेन समासलाभार्थम् अन्तग्रहणम्। वृत्तौ हि उपसर्जनानाम् एतत्त्वसंख्या उत्सर्गिकी। दिस् इस् अ रूल्, वेरी इम्पोर्टेण्ट्। सो इफ् यु आर् डूइङ्ग् समथिङ्ग् लैक् समास, एनी समास, लैक् से राजपुत्रः, जनरली इट् हेस् टु बी स्प्लिट् एस् राज्ञः पुत्रः अण्ड् नाट् राज्ञां पुत्रः। इवन् दो टेक्निकली all three vachanas might be correct, rajyah putraha, rajyoh putraha, rajyam putraha, whatever is it, once you delete the sup you will end up with rajaputra, but upasarjananam ekatva sankhya utsargiki, as a general rule we always split the samasa in ekavachana. If it is upasarjana we split it in ekavachana. Okay, dvitvadikam tu prayatna labhyam, and if there is some special effort then we can split it in dvitva or bahutva. It is possible, but prayatna labhyam iti bhashye sthitam yatha atra antagrahanam. So even if we did not have anta, anta shabda bhavepi sanyogantam yat padam iti labhyate tathapi antagrahanam kriyate paninina tena kim nyayate sanyogau antau iti dvitvam labhyate atra iti vishishta prayatna. Taking up the anta itself is a prayatna showing that अत्र द्विवचनान्तेन संज्ञा कर्तुं शक्यते, संयोगौ अन्तौ यस्य। तेन किं भवति, यत्र संयोगस्थितौ उभावपि हलौ पदस्य अन्ते एव स्तः तत्रैव लोपः, न तु भिन्ने पदे। इफ् इट् इस् अ संयोग बिट्वीन् टु डिफरेण्ट् वर्ड्स् देन् दिस् सूत्र विल् नाट् अप्लै। इट् विल् अप्लै ओन्ली वेन् द एण्टैर् संयोग, समुदायस्यैव संयोगसंज्ञा इति पक्षे क्लेशः नास्ति, ओके, बिकास् द होल् थिङ्ग् टुगेदर् गेट् संयोग। प्रत्येकं संयोगसंज्ञा इति पक्षे अपि उभावपि वर्णौ यत्र पदस्य अन्ते भवतः तत्रैव लोपः, नृषत् करोति इत्यादौ लोपः न भवति। तत्र सिद्ध्युपास्यः इत्यत्र यकारस्य लोपे प्राप्ते यणः प्रतिषेधो वक्तव्यः इति वार्तिकम्, यलोपे प्रसक्ते अनेन वार्तिकेन वार्यते, यणः प्रतिषेधः, संयोगान्तस्य लोपे यणः प्रतिषेधः। So, a yan at the end of a sanyoga will not be deleted. Yanaha iti vachanikam. Vachanikam nama, it is a specific restriction imposed by the vartikakara. Okay, he clearly states that yanaha pratishedhaha vaktavyaha. Okay. So, it's a statement which is taken as a rule. Yadva vachyo vyakheyaha. Or, he says vachyaha nama, it need not be told specifically, but vyakhyayaha, something else can be interpreted to mean this. Okay, I mean the existing sutras themselves can be interpreted to mean yanaha pratishethaha. Katham vyakhyanam vyakhyacha dvedha. So there are two ways in which we can derive this meaning from the existing sutras. Jhalo jhali ityataha jhal grahanam apakrushya jhalah eva lopah vidhiyate iti. So the first one is the apakarsha. We have already seen it in halantyam. Hal lu kayatamate hal cha lu cha iti kriyate tatra lakarasya sanyogantasya lopaha iti kayatamatam tattu na sambhavati iti dikshitaihi nirakritam. Katham nirakritam sanyogantasya lopaha ityasya यणः प्रतिषेधः इति पक्षः अथवा झलोझलि इत्यत्र जलग्रहणम् अपकृष्यते. सो दट् इस् द फस्ट् कैण्ड्. सो झलोझलि इति अग्रिमं सूत्रम्, इट् इस् 8-26, संयोगान्तस्य लोपः इस् 23. सो उत्तरसूत्रात् झल्ग्रहणम् अपकृष्यते. सो वि ब्रिङ्ग् बेक् द झल् एण्ड् से झलः एव लोपः विधीयते, संयोगान्तस्य झलः लोपः. सो ओन्ली अ झल् लेटर् एट् द एण्ड् आफ् अ संयोग विल् बि डिलीटेड्. Now yan, that is ya, va, ra, la, do not belong in jhal, therefore they will not be deleted. That is the first one. First way where with the existing sutra we can derive the same meaning. The second one is antarange lope kartavye bahirangasya yanaha asiddhatvam. He says lopaha antarangaha yan bahirangaha yanaha kim nimittam sudhi upasyaha atyasti. उपास्यः बहिर्भूत अच् निमित्तकत्वं यणादेशस्य, वेरस् संयोग depends only on the pada itself, that is the supratyaya which is existing in the pada. Sudhi upasya haiti samasaha. Adau kimasti sudhi su upasya su sudhi bhis upasya su. Tatra samase krite supaha lopaha bhavati. Tathapi pratyalakshanena supamashritya idam padam. Sudhi iti padam. Ataha antarbhuta nimittatvat lopaha antarangaha. Because lopa just requires it to be a pada and no external nimitta is required. Whereas yanadesha requires the nimitta in an external word. Bahirbhuta pada nimittakatvam yanaha lopasyatu antarangatvam. Antarange asiddham bahirangam antarange. Antarange kariye kartavye bahirangam asiddham. So antarange lope kartavye bahirangaha nama yanadeshaha asiddhaha. So lopa does not see yan, which means if there is ikara, there is no sanyoga at the end. Padante sanyoga nasti ataha sanyoga antasya lopaha iti nabhavati. Iti dvedha vyakhyatum shakyate. So pakshatrayamatra. Yanah pratishedho vaktavyaha, that vachyaha, vachanikaha pratishedhaha iti ekah pakshaha. Athava jalojali ityataha jalagrahanam apakrishya, jalayeva lopo bhavati iti dvitiyah pakshaha. Athava asiddham bahirangam antarange ityanena, antarange lope kartavye bahirangaha yan asiddhaha iti tritiyah pakshaha. Pakshatrayepi yalopaha varaitum shakyaha. So suddhyupasyaha ityatra yan na bhavati iti tatparyam. Now regarding this, there are lot of things about sanyogantasya lopaha in the manorama, okay, lot of vicharam. So the first one, asiddham bahirangam antarange iti uktam tat sadhurva, is it correct? Why nacha shashti asiddha paribhasha tripadi sthatvena asiddham antarangam lopam napashyati iti vachyam. Asiddha paribhasha, asiddham bahirangam antarange. Vaha oot disutre oot grahanena jnapita. So paribhashas are of different kinds. There are vachanika, that is those are which are specifically told. They are that, those are that which are jnapaka siddha, which are derived by some jnapaka in the sutra. Sutre kenachit jnapakena jnapitaha paribhashaha santi. Iyamapi jnapaka siddha paribhasha. Okay, we will see what is this jnapaka sometime later. But anyway, it is derived from Vaha Oot. Okay, with the rule Vaha Oot, which is 6-4-132. So how do we decide a place for paribhasha? Sutranam tu sutra samkhya asti. Paribhashanam katham iti chet. Yena sutrena jnapita tatraiva tesham sthanam. So if a paribhasha has been told in reference to a particular sutra, we treat its place as the same as of that sutra. So now this asiddha paribhasha belongs to the 6th chapter, 6-4-132, Vaha Oot. So shashti asiddha paribhasha, shashti nama shashtadhyaye sthita ityarthaha. So existing in the 6th chapter, tripadi sthatvena asiddham antarangam lopam napashyati. Now since it is in the 6th chapter, purvatra siddham ityasti. Sapara saptadhyayam prati tripadi asiddha. Sayogantasya lopaha iti sutram tripadyam asti. So iyam paribhasha tripadi sthatvena asiddham antarangam lopam napashyati iti vachyam. So it will not see the antaranga sutra. Only when both sutras are visible, both antaranga and bahiranga sutras are visible, then the paribhasha decides antarange kartavye bahirangam asiddham. Now the antaranga sutra is not visible to this paribhasha. Paribhasham prati paribhasha sutram asiddham. Asiddhatve sati antaranga bahiranga nirnayaha eva nasambhavati. So when one of the sutras is invisible, it is not possible to decide which is antaranga and which is bahiranga. Tatha sati paribhashayaha pravruttihi nasyat. Nacha shashti asiddha paribhasha tripadi sthatvena asiddham antarangam lopam napashyati iti vachyam. So this argument will not hold good. Why? Karyakala paksha abhyupagamat. He says karyakala paksha is accepted here. Now this is two paribhashas పరిభాషేంద్రశేఖరే ద్వితీయా తృతీయా చ పరిభాష. యథోద్దేశం సంజ్ఞా పరిభాషం, కార్యకాలం సంజ్ఞా పరిభాషం. టూ ఆపోజిట్ వ్యూస్, బోత్ ఆఫ్ విచ్ ఆర్ అక్సెప్టెడ్ అకార్డింగ్ టు ద కాంటెక్స్ట్ ఇన్ ద భాష్య. సో ఐ నాట్ గోయింగ్ టు డీటెయిల్స్ ఆఫ్ దీస్ టూ. సింప్లీ మీన్స్ యథోద్దేశం సంజ్ఞా పరిభాషం. యూ హావ్ టు రిమెంబర్ ఆల్వేస్ సంజ్ఞాస్ అండ్ పరిభాషాస్ డు నాట్ హ్యావ్ అన్ ఇండిపెండెంట్ ఎగ్జిస్టెన్స్. దే ఎగ్జిస్ట్ ఓన్లీ ఫార్ ద విధి. ఓకే, విధ్యర్థమేవ సంజ్ఞానాం పరిభాషాణాం చ ప్రణయనం. ఫస్ట్ పాయింట్. సో నౌ వెన్ యూఆర్ ట్రైంగ్ టు డిసైడ్ ద ప్లేస్ ఆఫ్ సంజ్ఞా పరిభాష, యథోద్దేశం యథా ఉద్దేశం ఎత్ర తేషాం ఉపదేశ కృతః తత్రైవ తేషాం స్థానం ఇది ఏకః పక్షః. ఫర్ ఎగ్జాంపుల్ వృద్ధిరాదైచ్, ఇట్ ఈస్ టోల్డ్ అస్ ద ఫస్ట్ సూత్ర ఆఫ్ అష్టాధ్యాయి. సో ఇట్ బిలాంగ్స్ టు 111. సో ద ప్లేస్ ఆఫ్ వృద్ధి సంజ్ఞా ఈజ్ 111. ద ప్లేస్ ఆఫ్ గుణ సంజ్ఞా ఇస్ 112. So that is how we decide. That is one view, which is yathodesham samya paribhasham. Whereas the opposite is karyakalam samya paribhasham. It states karyakalam yatra karyam tatra upasthitam nyayam. Where there is a vidhi sutra, whatever is the samya or paribhasha required for that vidhi to operate, all the samyas and paribhashas will collect at the place of the vidhi sutra. For example, vriddhirechi iti vidhi sutram asti. తస్య అర్థే జ్ఞాతవ్యే వృద్ధి సంజ్ఞాయాః కోర్థః ఇతి జ్ఞాతవ్యం. అతః వృద్ధిరేచి ఇత్యత్ర వృద్ధిరాదైచ్ ఇతి సంజ్ఞా ఉపస్థితా భవతి. సో వృద్ధిరాదైచ్ సంజ్ఞా సూత్ర విల్ అప్రోచ్ ద విధి సూత్ర. సో నౌ వెన్ వి ఆర్ ఆపరేటింగ్ వృద్ధిరేచి ద వృద్ధి సంధి, వి సే దట్ ద ప్లేస్ ఆఫ్ వృద్ధిరాదైచ్ ఇస్ ఆల్సో 6186 వేర్ ఎవర్ ద విధి సూత్ర. So all the Samya Sutras and Paribhasha Sutras are taken to the place of the Vidhi Sutra itself. So they do not have an independent existence in the Ashtadhyayi. They operate at the place of the Vidhi Sutras is what Karyakalam Samya Paribhasham states. Okay? They are both mutually opposing Paribhashas and both of them are accepted in the Shastra. It sounds contradictory, but according to the వ్యాఖ్యానతో విశేష ప్రతిపత్తి, డిపెండింగ్ ఆన్ ద కాంటెక్స్ట్ వి రిలై ఆన్ ఈదర్ ఆఫ్ దీస్ పరిభాషస్. నౌ హియర్ హి సేస్ కార్యకాల పక్ష అభ్యుపగమాత్, హియర్ వి అక్సెప్ట్ కార్యకాల పక్ష. వాట్ ఇస్ ద మేజర్ డిఫరెన్స్? సో యథోద్దేశ పక్షే త్రిపాద్యాం సంజ్ఞానాం పరిభాషాణాం చ ప్రవృత్తి న భవతి. ఇఫ్ వి అక్సెప్ట్ యథోద్దేశ పక్ష, దీస్ సంజ్ఞాస్ అండ్ పరిభాషస్ విల్ నాట్ ఆపరేట్ ఇన్ ద త్రిపాది, దే స్టే వేర్ దే ఆర్. సపాద సప్తాధ్యాయం ప్రతి త్రిపాది అసిద్ధా ఇత్యుక్తత్వాత్ త్రిపాదీస్థ సూత్రాన్ని అసిద్ధాని, దీస్ సూత్రాస్ విల్ నాట్ సీ ద సూత్రాస్ ఆఫ్ ద త్రిపాది అండ్ దేర్ ఫోర్ విల్ నాట్ ఆపరేట్ దేర్. సో దే విల్ ఆపరేట్ ఓన్లీ ఇన్ ద సపాద సప్తాధ్యాయి. వెరస్ ఇన్ కేస్ ఆఫ్ కార్యకాల పక్ష దే విల్ ఆపరేట్ ఈవెన్ ఇన్ ద త్రిపాది. హౌ? బికాస్ ఇఫ్ దేర్ ఇస్ అ విధి సూత్ర ఇన్ ద త్రిపాది, ఇట్ విల్ అట్రాక్ట్ టువర్డ్స్ ఇట్ సెల్ఫ్ all the sutra samyas and paribhashas required for its operation. This is what is given as the adrishta pishacha nyaya. Even if this samya sutra is not able to see that vidhi sutra, the vidhi sutra will attract it towards itself. Adrishta pishacha, even if you are not able to see the pishacha might affect you, because I mean it has the power to drag you somewhere. That is what they say, adrishta pishacha. యద్యపి అస్మాకం పిశాచః దృష్టః తథాపి పిశాచస్య వయం దృష్టాః. ద పిశాచి కెన్ సీ అస్ అండ్ ఇట్ కెన్ అఫెక్ట్ అస్. సిమిలర్లీ ఇఫ్ దర్ ఇస్ అ విధి సూత్ర ఇన్ ద త్రిపాది, ఇట్ విల్ అట్రాక్ట్ ఆల్ ద విధి సూత్రాస్ ఆల్ ద సంజ్ఞా సూత్రాస్ అండ్ పరిభాషా సూత్రాస్ టువర్డ్స్ ఇట్ సెల్ఫ్, విచ్ మీన్స్ ఇన్ కార్యకాల పక్ష. బేసికలీ ద ఫైనల్ థింగ్, యథోద్దేశం కార్యకాల దే హ్యావ్ అ లాట్ ఆఫ్ థింగ్స్ అసోసియేటెడ్ విత్ ఇన్. ద ఫైనల్ థింగ్ విచ్ మ్యాటర్స్ ఫార్ అస్ ఈస్ if we take yathodesha paksha, samya and paribhasha will not operate in the tripadi, whereas if we resort to karyakala paksha, samya and paribhasha will operate in the tripadi. So here he says, if we take to yathodesha paksha, shashti asiddha paribhasha tripadi sthatvena asiddham antarangam lopam na pashyati iti vaktum shakyate, kintu karyakala paksha abhyupagamat atra asmin sthale karyakala pakshaha angikriyate. తేన కిం భవతి త్రిపాద్యామపి పరిభాషాయాః ప్రవృత్తిః భవతి సంయోగాంతస్య లోపః ఇతి అంతరంగం అంతరంగం ప్రతి బహిరంగం అసిద్ధం. So because we accept Karyakala Paksha, we can operate Asiddham Bahirangam Antarange even in this case. And in that case, since Lopa is Antaranga, Yan is Asiddha and Lopa will not take place. Any questions? Yes, Yogesh Mahodaya.
Namaste. Atra vaha uthiri sutre uthgrahane na jnyatira asiddha paribhasha. Tatra katham sangati heti.
Should I go into that here? Because, I mean, it's a separate thing. How do we get derive asiddha paribhasha? Shashti asiddha paribhasha it yukchate. How do we say that paribhasha is shashtadhyayastha? Because the paribhasha is not in the ashtadhyayi. So you cannot classify them in the ashtadhyayi. So how do we take the place of a paribhasha is the sutra in which it is first told or from which it is derived. So vaha ut ityatra ut grahanena gyapita yam paribhasha. Ataha asyaha sthanam etadeva. 6-4-132.
Nama etasmin sutre etasya paribhasha yaha vidyamanattvam iti angikartavye.
Satyam. Tathaiva angikriyate. So hi svatantram ashtadhyayam sthanam nasti ityatah. ಯತ್ರ ಜ್ಞಾಪಕತ್ವಂ ಅಥವಾ ಯಸ್ಮಿನ್ ಸೂತ್ರೆ ಭಾಷಾಕಾರೇಣ ವಾ ವಾರ್ತಿಕಕಾರೇಣ ವಾ ಉಚ್ಯತೆ ತದೇವ ಸ್ಥಾನಂ ಇತಿ ಅಂಗೀಕ್ರಿಯತೆ ಅತಃ ಅಸ್ಯ ಸ್ಥಾನಂ ತು ವಾಹ ಊಟ್ ಇತಿ ಜ್ಞಾಪನ ಪ್ರಕಾರಃ ಪಶ್ಯಾಮಃ ಕದಾಚಿತ್ ಕಥಂ
ನಾಮ ಏತಸ್ಮಾತ್ ನಾಮ ಏತತ್ ಸೂತ್ರ ಕಾರಣಾದೇವ ಅಸಿದ್ಧ ಪರಿಭಾಷಾ ಇತಿ ಜ್ಞಾತವ್ಯಂ
ಅತ್ರ ಊಟ್ ಗ್ರಹಣೇನ ವಾಹಃ ಊಟ್ ಸಂಪ್ರಸಾರಣಂ ಭವತಿ ಇತ್ಯುಚ್ಯತೆ ಕೇವಲ ಸಂಪ್ರಸಾರಣ ಸಿದ್ಧತಿ ಊಟ್ ಕಮರ್ಥಂ ಪೃಷ್ಟ ತೇನ ಅಸಿದ್ಧಂ ಬಹಿರಂಗಂ ಅಂತರಂಗೇ ಇತಿ ಜ್ಞಾಪ್ಯತೆ ಎನಿ ಅದರ್ ಕ್ವೆಶ್ಚನ್ ನಜ ನಾಜಾನಂತರ್ಯೆ ಬಹಿಷ್ಕ ಪ್ರಕೃತಿಃ ಇತಿ ನಿಷೇಧಃ ಅಸಿದ್ಧಂ ಬಹಿರಂಗಮಂತರಂಗೇ ಇತ್ಯಸ್ಯ ಕಶ್ಚನ ನಿಷೇಧಃ ವರ್ತತೆ ದೇರ್ ಇಸ್ ಅ ನಿಷೇಧ ಸೂತ್ರ ಫಾರ್ ಅಸಿದ್ಧಂ ಬಹಿರಂಗಮಂತರಂಗೇ ಓಕೆ ಸೊ ನಾಜಾನಂತರ್ಯೇ ಬಹಿಷ್ಕ ಪ್ರಕೃತಿಃ ಕೋರ್ಥಃ ಅಚಃ ಅನ್ಯ ಆನಂತರ್ಯ ನಿಮಿತ್ತಕೆ ಅಂತರಂಗೇ ಕಾರ್ಯೇ ಕರ್ತವ್ಯೇ ಜಾತಸ್ಯ ಬಹಿರಂಗಸ್ಯ ಅಸಿದ್ಧತ್ವಂ ನ ಇತ್ಯುಚ್ಯತೆ So if the karya, antaranga karya you are doing is achaha anya anantarya nimittaka. It depends on anantarya, that is the avyavahitatva of two ach. That is, if a karya is happening when two ach are next to each other, right? Iko yanati. Ikaha sthane answer. Ikaha achi pare. So when ik is directly followed by ach, there is yan. So it is a achaha anya anantarya nimittake. The nimitta here is two ach being next to each other. Anya anantarya. Antaraha nabhavedanyehi. Achoho anya anantarye. Yad antarangam karyam. Tasmin kartavye jatasya bahirangasya asiddhatvam na. Tatra if bahiranga karyam yatkritam tasya asiddhatvam nabhavati iti uchyate. So it is an exception to asiddham bahirangam antarange. ಅಜಾನಂತರ್ಯ ನಿಮಿತ್ತಕ್ಕೆ ಅಂತರಂಗೇ ಕರ್ತವ್ಯೆ ಜಾತಃ ಬಹಿರಂಗಃ ಅಸಿದ್ಧಃ ನ ದಟ್ ಇಸ್ ಅ ನಿಷೇಧ ಸೊ ವಿಲ್ ದಟ್ ಆಪರೇಟ್ ಹಿಯರ್ ಎಸ್ ಅ ಕ್ವೆಶ್ಚನ್ ಹಿ ಸೇಸ್ ನ ಇಟ್ ವಿಲ್ ನಾಟ್ ವೈ ತಸ್ಯ ಅನಿತ್ಯತ್ವಾತ್ ಫಸ್ಟ್ ಥಿಂಗ್ ಇಸ್ ದ ನಿಷೇಧ ಇಸ್ ಅನಿತ್ಯ ಅಜಾನಂತರ್ಯ ಬಹಿಷ್ವ ಪ್ರಕೃತಿ ಇತಿ ಅನಿತ್ಯಂ ಯದ್ಯಪಿ ತಸ್ಯ ಪ್ರವೃತ್ತಿ ಸ್ವೀಕ್ರಿಯತೆ ತಥಾಪಿ ಉತ್ತರ ಕಾಲ ಪ್ರವೃತ್ತೇ ಲೋಪೆ ಅಜಾನಂತರ್ಯ ಅಭಾವಾತ್ Here, the antaranga is not ajanantarya nimittaka. Lopa does not say anything about ach. It is just sanyoga antasya lopaha. Right? It is hal anyanantarya nimittaka. It just requires two hal to be close together and it to be at the end of a pada. It is not ajanantarya nimittaka. Here it is a bahiranga which is ajanantarya nimittaka. Yanadesha which has been done. Whereas the antaranga is not that. Najanantarya vahishto prakruptihi itito. ಅಜಾನಂತರ್ಯ ನಿಮಿತ್ತಕ್ಕೆ ಅಂತರಂಗೇ ಕಾರ್ಯೇ ಕರ್ತವ್ಯೇ ಬಹಿರಂಗಮಸಿದ್ಧಂ అత్ర తు అంతరంగం కార్యం అజానంతర్య నిమిత్తకత్వం నిమిత్తకం న బహిరంగం జాతః జాతం యద్ బహిరంగం తదేవ అన్యానంతర్య నిమిత్తకం. అతః ఉత్తరకాల ప్రవృత్తే లోపే అజానంతర్యాభావాత్ అయం నిషేధః న ప్రవర్తతే అసిద్ధం బహిరంగం అంతరంగే ఇది భవత్యేవ. సో అసిద్ధం బహిరంగం అంతరంగే విల్ ఆపరేట్ హియర్ అండ్ దేర్ ఫోర్ దేర్ ఆర్ త్రీ వేస్ ఆఫ్ ప్రివెంటింగ్ దిస్. సో తథా చ వార్తికం సంయోగాంతస్య లోపే యణః ప్రతిషేధః నవా ఝలో లోపాత్ బహిరంగ లక్షణాద్వా. సో దేర్ ఆర్ త్రీ వార్తికస్ విచ్ ఆర్ గివన్ హియర్ బై ద వార్తికకార. హి సేస్ సంయోగాంతస్య లోపే యణః ప్రతిషేధః వక్తవ్యః ఇత్యర్థః. డైరెక్ట్లీ యణ్ సంయోగాంత లోప ఫర్ యణ్ హ్యాస్ టు బి ప్రివెంటెడ్. నవా నాట్ రిక్వైర్డ్ దట్ ఇస్ ప్రతిషేధ నీడ్ నాట్ బి టోల్డ్. వై ఝలః లోపాత్ ఝలో ఝలి ఇత్యతః ఝల్ గ్రహణం అపకృష్య ఝలః ఏవ లోపః ఇది వ్యాఖ్యాయతే. బహిరంగ లక్షణాద్వా అథవా బహిరంగ లక్షణం నామ అసిద్ధం బహిరంగం అంతరంగే ఇత్యనేన వా సిద్ధిః భవిష్యతి. సో త్రీ ఆల్ త్రీ ఆర్ వార్తికాస్. వార్తికకార హింసెల్ఫ్ ఇనీషియలీ హీ ప్రపోసెస్ ఎ వాచనిక ప్రతిషేధ దట్ స్పెసిఫిక్ ప్రతిషేధ హ్యాస్ టు బి టోల్డ్ అండ్ దెన్ హీ హింసెల్ఫ్ సేస్ నవా నాట్ రిక్వైర్డ్ అండ్ హీ గివ్స్ టూ అదర్ వేస్ ఫ్రమ్ విచ్ ద సేమ్ థింగ్ క్యాన్ బి డిరైవ్డ్. సో ఇహ యథోద్దేశ పక్షే ఆద్యం వార్తికద్వయం తృతీయం తు కార్యకాల పక్షే. సో బహిరంగ లక్షణ హ్యాస్ టు బి కార్యకాల పక్ష. ద అదర్ టూ ఇస్ యథోద్దేశ పక్ష దట్ ఇస్ ఇఫ్ యూ think that paribhashas will not operate in the tripadi, then you can either have a vachanika pratishedha or jhal grahana apakarsha. Okay. Yattu ahuhu vartika krutaha vachanam pratyakhyana prakaradvayantu bhashrakataha iti tan nirmulam. So some people say that the first vartika yana pratishedha vaktavyaha iti vartikam nava iti yad దత్తం ప్రత్యాఖ్యాన ప్రకారద్వయం. దేర్ ఆర్ టూ వేస్ ఇన్ విచ్ ద ప్రతిషేధ ఇస్ నెగేటెడ్ దట్ ఇస్ ఇట్ నీడ్ నాట్ బి టోల్డ్ విచ్ ఇస్ ఝలో లోపాద్ ఆర్ బహిరంగ లక్షణ. భాష్యకృత దట్ వాస్ గివన్ బై ద భాష్య. సమ్ పీపుల్ సే ఇట్ ఇస్ వార్తికకార సెడ్ ఓన్లీ ద ఫస్ట్ వన్ అండ్ ద భాష్యకార డినైజ్ ద వార్తిక అండ్ గివ్స్ టూ అదర్ వేస్ ఆఫ్ అచీవింగ్ ఇట్. సో తత్ నిర్మూలం హి సేస్ దట్ ఇస్ బేస్లెస్. వై మతభేదే ప్రమాణాభావాత్. There is no pramana to say that the Vartikakara and the Bhashyakara differ here. Why? So, naveti va shabda svarasyena. How does it go? Sanyogantasya lope yanaha pratishedaha. Nava, jalo lopad. So, or else not required. So, nava iti va shabda svarasyena. It says, nava or not required. So it is the Vartikakara himself he is thinking. Initially he states that okay, let us make a pratishedha. Then he says, or else no, we need not state it separately, we can achieve it through jalahalopa, etc. Nava iti va shabda svarasyena vachanarambha vadinaha eva pratyakhyana prakaraha. So it is the same person who is stating something else because of that va. If you say or, you state something and then say or something else. It means it is the same person who is stating the both. He is stating both. Okay. If it were the Bhashyakara, he should have simply said na. But it's not needed. He would not have told that va. Okay. So, nava iti va shabda svarasyena vachanarambha vadinaha eva pratyakhyana prakaraha iti jnayate. Kincha tattarhi vaktavyam na vaktavyam ityadibhe eva vartika pratyakhyanam bhashyakrit cheli. If you look at the entire bhashya, the style of the bhashya, wherever he wants to negate a vartika, he says tattarhi vaktavyam. Oh, that should be told. Na vaktavyam, not required. So it is these words with which he sets out to do pratyakhyana of a vartika. He never starts with nava. Okay. So from both these evidences, we can assume that it is the vartikakara himself who gives all three ways of dealing with the issue and not that one is by vartikakara and the rest by bhashyakara. So, all three are acceptable to both the Vartikakara and the Bhashyakara. Okay. So, any questions? Okay. It is fine. We'll stop here today. I'm sorry that I have to wrap up a bit early because I have to go elsewhere. So, we'll continue with this in the next class. ధ్యాయం ధ్యాయం పరం బ్రహ్మస్మారం స్మారం గురోర్గిరః సిద్ధాంత కౌముదీ వ్యాఖ్యాం కుర్మః ప్రౌఢ మనోరమాం.